गिरिशं समये प्रदोषे येनार्चितं शिवमपि प्रणमन्ति चान्ये एतत्कथां श्रुतिपुटैर्नपि बन्ति मूढा ते जन्म जन्म सुभवन्ति नरा दरिद्राः